एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। एतन्मासस्य चतुर्थे दिवसे सम्पन्नस्य प्रतिनिधिसभायाः प्रदेशसभानां च सदस्यानां निर्वाचनस्य अन्तर्गतम् प्रतिनिधिसभायाः प्रत्यक्षपक्षस्य इदानीं यावत् चतुर्णां स्थानानां परिणामः अवशिष्टो वर्तते। सुनसरी जनपदस्य चतुर्थे क्षेत्रे मतगणना विधीयमाना वर्तते। बाजुरा जनपदे स्याङ्जा जनपदस्य द्वितीय क्षेत्रे च मतगणनां विधातुं निर्वाचनायोगेन निर्दिष्टमस्ति। स्याङ्जा क्षेत्रे मतगणना गतदिवसतः प्रारब्धा च अस्ति। दोलखा जनपदे अद्य पुनर्मतदानं सम्पद्यमानं वर्तते। दोलखा जनपदस्य बैतेश्वर ग्रामपालिकायाः द्वितीय वडा क्षेत्र वर्तिनः जनज्योति माध्यमिक विद्यालय मतदान स्थलस्य कख केन्द्रद्वयम्, तृतीय वडा क्षेत्र वर्तिनः कालीढुंगा माध्यमिक विद्यालय मतदान स्थलस्य कख ग केन्द्रत्रयम्, षष्ठ वडा क्षेत्र वर्तिनो बैतेश्वर माध्यमिक विद्यालय मतदान स्थलस्य कख ग केन्द्रत्रयम्, तामाकोशी ग्रामपालिकायाः तृतीय वडा क्षेत्र वर्तिनः स्वास्थ्य केन्द्र भवनस्य जफे मतदान केन्द्रस्य कख केन्द्रद्वयं चेति कृत्वा दशसु मतदान केन्द्रेषु अद्य पुनर्मतदानाय आवश्यकं पूर्वकार्यं प्रपूरितमिति दोलखा जनपदस्य मुख्य निर्वाचनाधिकृतः दिल्ली रत्न श्रेष्ठः अवोचत। निर्वाचनायोगेन दोलखा जनपदस्थ मुख्य निर्वाचनाधिकृतस्य कार्यालयः अद्य पञ्चदश दिवसस्य अभ्यन्तरे चतुर्षु मतदानस्थलेषु पुनर्मतदानं कारयितुम् एतन्मासस्य एकादशी दिवसे निर्दिष्टः आसीत्। मतदानं शान्तिपूर्णं विधातुं सर्वेषां मतदातृणां कृते निर्भयं मतदानस्य वातावरणं निर्मातुं च चतुःशतं सुरक्षाकर्मिणः परिचालिताः सन्तीति प्रमुख जनपदाधिकारी भोजराज खतिवडा अवदत्। निर्धारित पुनर्मतदानेषु दशसु मतदान केन्द्रेषु अष्टौ सहस्राणि चतुर्दशाधिक पञ्चशतञ्च मतदातारः सन्तीति दोलखा जनपदीय निर्वाचन कार्यालयो ज्ञापयति। मतगणनायाः पश्चात्तन परिणामस्य अनुसारेण प्रतिनिधिसभायाः प्रत्यक्ष पक्षे नेपाली कांग्रेस दलं चतुःपञ्चाशति, नेकपा एमाले दलं चतुःचत्वारिंशति, नेकपा माओवादी केन्द्रम सप्तदशसु, नेकपा एकीकृत समाजवादी दलं दशसु, राष्ट्रिय स्वतन्त्र दलं, राष्ट्रिय प्रजातन्त्र दलं, जनता समाजवादी दल नेपालश्च प्रतिदलं सप्तसु स्थानेषु विजयं प्राप्तवन्ती सन्ति। अवशिष्टेषु स्थानेषु इतराणि दलानि स्वतन्त्र प्रत्याशिनश्च विजयिनः समृद्धाः सन्ति। प्रदेश सभानाम् निर्वाचने अधुनावधि नेपाली कांग्रेस दलेन षडधिक सते स्थानेषु विजय अधिगतोस्ति। नेपाल कम्युनिष्ट पार्टी एमाले दलेन नवत्याम् स्थानेषु विजय प्राप्तो वर्तते। नेकपा माओवादी केन्द्रञ्च त्रःपञ्चाशति स्थानेषु विजयम् प्राप्य तृतीय स्थाने वर्तते। नेकपा एकीकृत समाजवादी दलेन चतुर्दशसु, राप्रपा दलेन एकादशसु, जसपा दलेन च एकादशसु, लोकतान्त्रिक समाजवादी दलेन नवसु, जनमत दलेन अष्टसु, नागरिकोन्मुक्ति दलेन सप्तसु च स्थानेषु अधुनावधि विजय प्राप्तो वर्तते। प्रतिनिधि सभायाः सदस्यानां निर्वाचने समानुपातिक प्रणाल्याः पक्ष अधुनावधि एक कोटि एक लक्षं चतुस्सप्तति सहस्राणि षड्विंशत्यधिक शतत्रयञ्च मतानि परिगणितानि सन्ति। निर्वाचने समग्रतः एक कोटि उनाशीति लक्षाणि अष्टाशीति सहस्राणि सप्तत्यधिक पञ्चशतञ्च मतदातारः आसन्। एतेषु एक कोटि नवलक्षाणि त्रिसप्तति सहस्राणि च मतानि अव्यक्तानीति आयोगेन ज्ञापितं वर्तते। निर्वाचनायोगस्य सूचना प्रणाल्यां प्रविष्टायाः सूचनायाः अनुसारेण समानुपातिक प्रणाल्याः पक्षे अधुनावधि नेकपा एमाले दलम् अग्रस्थाने वर्तते। अधुनावधि नेकपा एमाले दलेन सप्तविंशति लक्षाणि द्वाविंशति सहस्राणि चत्वारिंशद् अधिक शतचतुष्टयञ्च मतानि प्राप्तानि सन्ति। नेपाली कांग्रेस दलेन पञ्चविंशति लक्षाणि पञ्चाशीति सहस्राणि अष्टानवत्यधिकाष्ट शतञ्च मतानि प्राप्तानि वर्तन्ते। नेकपा माओवादी केन्द्रेण एकादश लक्षाणि त्रिपञ्चाशत् सहस्राणि षडधिक पञ्चशतञ्च मतानि अधिगतानि सन्ति। राष्ट्रिय स्वतन्त्र दलेन एकादश लक्षाणि चत्वारि सहस्राणि अष्टाविंशत्यधिक शतद्वयञ्च मतानि प्राप्तानि वर्तन्ते। जनता समाजवादी दलेन चत्वारि लक्षाणि अष्टौ सहस्राणि चतुष्षष्ट्यधिक नवशतञ्च मतानि प्राप्तानि सन्ति। जनमत दलेन त्रीणि लक्षाणि षड्सप्तति सहस्राणि एकाधिक शतद्वयञ्च मतानि अधिगतानि विद्यन्ते। एवमेव नेकपा एकीकृत समाजवादी दलेन 290,797 मतानि प्राप्तानि सन्ति। अन्यानि मतानि अन्यै दलैः प्राप्तानि सन्तीति आयोगेन ज्ञापितं वर्तते। पेयजल मन्त्री उमाकान्त चौधरी कथयति काष्ठमण्डपे अस्यैव मार्गशीर्ष मासस्य अभ्यन्तरे मेलञ्ची नद्याः जलं पुनः वितरयिष्यते। मेलञ्ची पेयजलायोजनायाः कार्यप्रगतिं बोद्धुं पूर्वेद्युः आयोजनायाः उद्गम भूमिम् अम्बा थानस्थलं प्राप्तो मन्त्री चौधरी मार्गशीर्ष मासस्य 27 दिवसं यावत् पेयजल वितरणस्य लक्ष्येण कार्यं विद्यमानम् अस्तीति अकथयत्। मन्त्री चौधरी इतः पूर्वं जल विप्लव भूस्खलन वर्षाणां कारणेन भूयो भूय पेयजलायोजनायाः संरचनासु प्राप्तक्षते हेतो काष्ठमण्डपे निरन्तरं जलप्राप्तेः असामर्थ्यं प्रति मन्त्रालयः सचेष्टो स्थिति चर्चयन् निरन्तरं जलप्राप्तिं सुनिश्चेतुं विशेष कार्ययोजनया कार्यं विद्यमानमस्तीति अज्ञापयत। मन्त्री चौधरी वर्षाकालस्य समाप्तेः अनुपदमेव जलम् आनेतुं पूर्वकार्यं विहितं सदपि विजयादशमी यमपञ्चक प्रवृत्तिनां पर्वणां निर्वाचनस्य च कारणेन विलम्बनं जातम् अतर्कयत। काष्ठमण्डपोपत्यका विकास प्राधिकरणेन सर्वकारीयां कृषिरहिताम् अपञ्जीकृताम् नद्याः मापदण्डस्य अन्तर्गताम् च भूमिम् अतिक्रम्य निर्मिताः अनधिकृताः संरचनाः 35 दिनानामभ्यन्तरे अपाकर्तुम् अनुरुद्धमस्ति। प्राधिकरणेन ह्यः सूचनां प्रकाश्य उपत्यकायाः नगराणां पुनर्निर्माणस्य विकासस्य विस्तारस्य च माध्यमेन उपत्यका क्षेत्रं व्यवस्थितं विधातुम् अतिक्रम्य निर्मिताः संरचनाः अपाकर्तुम् अनुरुद्धमस्ति। प्राधिकरणेन अतिक्रम्य निर्मितासु संरचनासु न अपाकृतासु सतिषु प्राधिकरणेन अपाक्रियन्ते अपाकरणाय अपेक्षितः कार्यव्ययः सम्बद्ध व्यक्तिभ्यः संस्थाभ्यो वा गृह्यन्ते इति च ज्ञापितमस्ति। विभिन्न संचार माध्यमेषु कार्यरतैः 0.78% महिला पत्रकारैः अनलाइन सांजालिक हिंसा षोडभ्यस्तीति प्राप्तमस्ति। मीडिया एडवोकेसी समूहेन विहितस्य अध्ययनस्य अनुसारेण 0.74% महिला पत्रकारैः अनलाइन हिंसा त प्रारभ्य भौतिकाक्रमणं तर्जनं च षोडभ्यस्तः।